हर्ष्यामि सिद्धिर्भवतु मे,
श्याम
पठामि संस्कृतं नित्यं, वदामि संस्कृतं सदा, ध्यायामि संस्कृतं सम्यक्, वन्दे संस्कृतमातरं, संस्कृतस्य प्रसाराय नैजं सर्वं ददाम्यहं, संस्कृतस्य सदा भक्तो, वन्दे संस्कृतमातरं, संस्कृतस्य कृते जीवन्, संस्कृतस्य कृते यजन्, आत्मानमाहुतं मन्ये, वन्दे संस्कृतमातरं, वन्दे संस्कृतमातरं।
यश श्लोक अहम न जानामि।
किं भगिनि?
संस्कृतमातरस्य
श्लोकं वा? अयं श्लोकः प्रातस्मरणपुस्तके अस्ति
भगिनि,
ध्येयश्लोकः, संस्कृतभारत्याः ध्येयमन्त्रः इति।
गीतसंस्कृतं पुस्तके अस्ति वा?
भवेत्, भवितुमर्हति, प्रातस्मरणे अस्ति, तदहं जानामि। अस्तु,
कृपया कृपया प्रेषयतु।
अवश्यम् अवश्यं प्रेषयामि। अहं वाट्सप् मध्ये प्रातस्मरणं पुस्तकम् अस्ति चेत् तत्र अस्ति। अस्तु, किञ्चित् एकमासात् परं वयं मिलामः इत्यतः निश्चयेन पुनस्मारणस्य आवश्यकता अस्ति। अतः गतवर्गस्य पञ्चश्लोकानाम् अपि पारायणं कुर्मः, इत्युक्ते पञ्चविंशतितमश्लोकः। सर्वे अपि पठामः पञ्चविंशति।
अस्तु भगिनि,
श्लोकः तस्मात् आरभ्य पर्यन्तं द्वात्रिंशत् तमश्लोकः। वागर्थाविव संपृक्तौ वागर्थप्रतिपत्तये जगत पितरौ वन्दे पार्वती परमेश्वरौ, स्थित्यै दण्डयतो दण्ड्यान् परिणेतुः प्रसूतये, अप्यर्थकामौ तस्यास्ताम् एव मनीषिणः, स यज्ञाय सस्याय मघवार्थिवम् सम्पद्विनिमयेनोभौ ददथुर्भुवनद्वयम्, लानुययुस्तस्य राजानो रक्षितुर्यशः, श्रुतौ करता स्थिता, द्वेष्योऽपि सम्मतशिष्टः तस्यार्तस्य यथौषधम्, त्याज्यो दुष्टः प्रियो व्यासि अङ्गुलीम् अङ्गुलीमोरगक्षता, तं वेधा विदधे नूनम् महाभूतसमाधिना, तथा हि सर्वे तस्यासन् परार्थैकफलागुणाः, लावप्रवलयाम् परिखीकृतसागराम् अनन्यशासनामुर्वीम् शशासैकपुरीमिव, क्षिण्यरूढेन नाम्ना मगधवंशजा, पत्नी सुदक्षिणेत्यासीत् अध्वरस्येव दक्षिणा कलत्रवन्तमात्मानम् महत्यपि तया मे नेमनुविन्या लक्ष्म्या च वसुधाधिपः हरि ओम् नमस्कारः अद्य अग्रे त्रयस्त्रिंशत् श्लोकात् आरभ्य शक्यते चेत् चतुर्णां श्लोकानाम् अध्ययनं कुर्मः ततः पूर्वं डिसेम्बर् मासे एकमासं यावत् वर्गः न आसीत् तस्मिन् समये कञ्चित् एतद् अभ्यासाय प्रश्नाः प्रेषिताः आसन् मुत्तुलक्ष्मी भगिनी अपि प्रेषितवती उत्तराणि प्राप्तं मया एवं कुर्मः अनन्तरं पोङ्गल् अनन्तरम् एकवर्गे यत् व्याकरणसम्बद्धप्रश्नाः सन्ति तेषां तु चर्चां कृत्वा उत्तराणि परिशीलयितुं शक्नुमः युगपदेव अथवा पोस्ट् कुर्मः चेत् पर्याप्तं भवति यत् दीर्घ उत्तराणि सन्ति अनुच्छेदात्मकं वा वाक्यैः लेखनीयं भवति तानि उट्टङ्क्य वा लिखितं स्कान् कृत्वा वा प्रेषयन्तु कृपया एवं कुर्मः अस्तु सर्वे अपि तथैव कुर्मः किल ऑब्जेक्टिव् टैप् क्वेश्चन्स् प्रश्नाः ये भवन्ति तेषाम् उत्तराणि वयं पोस्ट् कर्तुं शक्नुमः यदा सर्वे समापयन्ति तदा तद् स्वयं वयं परिशीलयामः अन्य उत्तराणि दीर्घोत्तराणि वा अनुच्छेदात्मक उत्तराणि वा तत्र तस्य उट्टङ्कनं कृत्वा वा स्कान्ड् कापि वा प्रेषयन्तु अहं परिशील्य प्रेषयामि अस्तु अद्यतन पाठस्य आरम्भः वयं पूर्वतनश्लोके द्वात्रिंशत् तमे श्लोके कलत्रवन्तम् आत्मानं मेने इति दृष्टवन्तः कया कलत्रवन्तं मेने आत्मानं मनस्विनी सुदक्षिणा सा बुद्धिमती सुदक्षिणा आसीत् यद्यपि बहवः तस्य बहव्यः पत्न्यः आसन् यथा पूर्वकाले राज्ञां भवति स्म तथापि सुदक्षिणया बुद्धिमत्या सुदक्षिणया एव सा आत्मानं कलत्रवन्तं मेने अहं कलत्रवान् पत्नीवान् अस्मि इति आत्मानं सः सुदक्षिणया एव सः मतवान् तस्य समन्यते स्म इत्युक्ते तां पट्टमहिषीं चिन्तितवान् तामेव पट्टमहिषीरूपेण दृष्टवान् सः इति अर्थः प्रधानवल्लभा एवं कलत्रवान् आसीत् तेन तस्य बहु सन्तोषः सुदक्षिणया आत्मानुरूपा इत्यपि तस्याः वर्णनं भवति किन्तु पुत्रवान् न आसीत् दिलीपः तद्दुःखं तस्य मनसि अस्ति तद्विषये अयं श्लोकः अस्ति पुत्राभिलाषी दिलीपः तद्विषये कविः किं वदति इति द्रक्ष्यामः आत्मानुरूपाय आत्मजन्मसमुत्सुकः विलम्बितफलकालम् सनिनाय मनोरथैः मिलित्वा श्लोकं पठामः सर्वे अपि तस्यामात्मनुरूपायाम् आत्मजन्मसमुत्सुकः विलम्बितफलैः कालम् सनिनाय मनोरथैः। तस्यां पत्न्यां सुदक्षिणायां पुत्रप्राप्तेः अभिलाषं कृतवान्, किन्तु सा च पुत्रप्राप्तिः विलम्बिता भवति स्म। तेन कारणेन सः दुःखितः इति भावः, एवं सः कालं नीतवान्, कालं यापितवान् इति अर्थः श्लोकस्य सामान्य अर्थः। इदानीं विस्तरेण द्रक्ष्यामः। पदच्छेदः कथं भवति? तस्यां आत्याम् आत्मजन्मसमुत्सुकः, क्षम्यतां, समुत्सुकः भवति, अत्र दोषः अस्ति, समुत्सुकः विलम्बितफलैः सह निनाय मनोरथैः, एवं भवति। इदानीम् अन्वयक्रमं द्रक्ष्यामः। अस्मिन् श्लोके क्रियापदं किम्? निनाय, नीतवान्, अनयत् इत्यर्थः। निवेदिता भगिनी, श्लोकाः न दृश्यन्ते।
अस्तु, पुनः स्थापयामि।
इदानीं श्लोकं केवलं पश्यन्तः वयम् अन्वयक्रमं वदामः। यद्यपि तत् अस्ति, वयम् अन्वयक्रमं स्वयं चिन्तयितुं प्रयतामहे। अस्तु, निनाय नाम अनयत्, नीतवान्, श्लोकस्य एतदेव क्रियापदम्। अस्तु, इदानीं कर्तृपदं किं? कः निनाय? इति प्रश्ने कृते उत्तरं सः निनाय। समीपे एव सः इति पदमपि अस्ति, सः निनाय। सः कः? विलिम्पः। सः कीदृशः सन्निनाय? समुत्सुकः, आत्मजन्मसमुत्सुकः सन्निनाय। आत्म जन्मा इत्युक्ते पुत्रः, आत्मजन्मा इति पदं भवति। आत्मजन्मनः जन्मनि समुत्सुकः, तस्मिन् विषये सः उत्सुकः सन् कालं यापितवान्। अस्तु, पूर्वमेव दृष्टं, तस्य बहव्यः पत्न्यः आसन्, किन्तु तस्याम् आत्मानुरूपायां सुदक्षिणायां सः पुत्र प्राप्तिम् इष्टवान्। किन्तु किं जातम्? सः एवं कालं कथं निनाय? मनोरथैः निनाय। मनोरथः आसीत् तस्य इच्छा, अभिलाषः। कः मनोरथः? पुत्रप्राप्तेः। किन्तु कीदृशैः मनोरथैः सः कालः यापितः तेन इति चेत्, विलम्बितफलैः मनोरथैः सः कालं निनाय। कीदृशैः मनोरथैः चेत्? विलम्बितफलैः मनोरथैः इत्युक्ते यस्य अभिलाषस्य फलप्राप्तौ विलम्बः जायमानः अस्ति तादृशैः मनोरथैः सह कालम् अग्रे नीतवान् इत्यर्थः। इदानीम् अन्वयं पश्यामः। आत्मानुरूपायां तस्यां नाम सुदक्षिणायां आत्मजन्मसमुत्सुकः सन् विलम्बितफलैः मनोरथैः कालं निनाय। सुखः इति अस्ति, क्षम्यताम्, सुखः भवेत्, ह्रस्वककारः भवेत्, तदहम् अग्रे परिष्करोमि। पदपदार्थं पश्यामः, प्रतिपदार्थं सः। सः कः? दिलीपः। आत्मानुरूपायां तस्यां स्वस्य सदृशी अस्ति अथवा स्वेन सदृशी अस्ति सुदक्षिणा। तादृश्यां सुदक्षिणायाम् आत्मानुरूपा यथा रूप गुण शील सर्वविषयेषु स्वस्य सदृशी सुदक्षिणा अस्ति, तादृश्यां सुदक्षिणायाम् आत्मजन्म समुत्सुकः सन् आत्मजन्मा नाम पुत्रः, आत्मनः पुत्रः इति किल आत्मजन्मा पुत्रः, तस्मिन् उत्कण्ठितः अस्ति सः। तस्मिन् विषये पुत्रप्राप्तौ अथवा पुत्राभिलाषे उत्कण्ठितः, अधीरः, तत्प्राप्तौ इच्छुकः सः आत्मजन्मसमुत्सुकः सन् विलम्बितफलैः मनोरथैः। कदा मे पुत्रः भविष्यति इति आशय, किन्तु तस्य फलं विलम्बितं जायमानमस्ति, इतोपि न प्राप्यते इष्टं तत्। अतः विलम्बितफलैः मनोरथैः कालं निनाय सः समयं यापयामास, सः समयं यापितवान् इति अर्थः। किमर्थं पश्यामः, किमर्थं पश्यतु, अत्र आत्मजन्मा इति पदं प्रयुक्तं कविना। आत्मजन्मा, आत्मा वै जायते पुत्रः इति वाक्यमस्ति। आत्मा एव पितुः पुनः पुत्ररूपेण जन्म प्राप्नोति इति वाक्यम्, अतः एव आत्मजन्मा इति पदं प्रयुक्तं कविना। आरम्भे एव उक्तं किल प्रथमश्लोके, वागर्थाविव सम्पृक्तौ वागर्थप्रतिपत्तये जगतः पितरौ वन्दे पार्वती परमेश्वरौ। तत्रापि एकवाक्ये श्रुतेः यथा अनुसरणं स्मृतिः यथा करोति तथा सुदक्षिणा अनुसरणं कृतवती इति, अनुगमनं कृतवती इति। कवेः वाक्यानि अपि बहु श्रुतिवाक्यानां बहु समीपे, श्रुतेः अर्थस्य बहु समीपं भवति। आत्मजन्मा इति पदं तेन प्रयुक्तम्। आत्मा वै जायते पुत्रः इति श्रुतिवाक्यं स्वस्य मनोनुकूलायां भार्यायां सुदक्षिणायां पुत्रोत्पत्तिः कदा भवेत् इति आशया च, कुतः एतावान् विलम्बः इति चिन्तया च, राजा दिलीपः दिनानि यापितवान् इति अर्थः। आत्मानुरूपायाम् इत्यस्य समासः कथं भवति? आत्मनः अनुरूपा सदृशी इति अर्थः। आत्मानुरूपा सप्तम्याम् अस्ति इत्यतः तस्याम् आत्मानुरूपायाम्। आत्मजन्मसमुत्सुकः इति पदस्य आत्मनः जन्म यस्य सः आत्मजन्मा पुत्रः इत्यर्थः. अत्र कथम् आत्मजन्मन् जन्मा इति भवति प्रथमाविभक्तिरूपम् शब्दस्य, यथा आत्मा आत्मानौ आत्मानः, तथैव जन्मशब्दस्य नपुंसकलिङ्गे रूपं कथं भवति? नकारान्तं. जन्मजन्मनि जन्मानि कर्मकर्मणि कर्माणि इव भवति. किन्तु बहुव्रीहि समासान्ते तद् जन्मशब्दः एव नकारान्तं रूपं प्राप्नोति. आत्मजन्मा इदानीं जन्मजन्मनि जन्मानि न भवति रूपम्. आत्मजन्मा आत्मजन्मानौ आत्मजन्मानः इति रूपं भवति. तथैव कर्म पदस्य अपि कर्म कर्मणि कर्माणि. किन्तु गीता श्लोकेषु बहुत्र अकर्मः अकर्म विकर्म अनन्तरम् अवाप्तकर्म इत्यादिकं भवति. तत्र शब्दस्य भिन्नरूपं भवति यथा आत्मशब्दस्य तथैव. अकर्मणः इति पदं भवति किन्तु प्रथमाविभक्तिरूपम् आत्मा इव आत्मन् शब्दवत् गच्छति. एवं द्रष्टव्यं भवति. यत्र यत्र नपुंसकलिङ्गशब्दाः समासान्ते भवन्ति तत्र अस्माभिः अवधानं करणीयं भवति. कथं तस्य अन्तं पुल्लिङ्गं वा स्त्रीलिङ्गं वा, निश्चयेन पूर्ववत् नपुंसकलिङ्गान्तं न भवति. समीपस्तरपुल्लिङ्गशब्दवत् अथवा स्त्रीलिङ्गे अपि तद् कथं भवति इति अस्माभिः अवलोकनीयं भवति. इदानीम् आत्मजन्मा इत्यस्य समस्तपदं पृथक्. पुनः सः समुत्सुकः, उत्सुकः इत्युक्ते अधीरः, तस्मिन् विषये इच्छुकः. कुत्र समुत्सुकः? आत्मजन्मनि इत्युक्ते पुत्रे समुत्सुकः आसीत्. विलम्बितफलैः, विलम्बितं फलं येषां मनोरथानां, विलम्बितं फलं येषां मनोरथानां, ते विलम्बितफलाः. मनोरथैः इत्यत्र तैः विलम्बितफलैः मनोरथैः. मनसः रथाः इव मनोरथाः इति अपि समस्तपदं विग्रहवाक्यं भवति. मनः एव रथः इति अपि क्वचित् अस्ति कोशे. एवम् अस्य श्लोकस्य विषयः अस्माभिः दृष्टः. एकवारं श्लोकं पठामः. तस्यामात्मानुरूपायाम् आत्मजन्मसमुत्सुकः विलम्बितफलैः कालम् मनोरथैः. कुत्रापि संशयः अस्ति चेत् उल्लिख्य पुस्तके, टिप्पणीपुस्तके वा कुत्रापि लिखन्तु. अन्ते वयं पञ्चनिमेषं यावत् संशयाः सन्ति चेत् तेषां निवारणं कर्तुं प्रयतामः. अग्रिमं श्लोकम्. इदानीं पुत्रप्राप्तौ विलम्बः जायमानः अस्ति, चिन्तितः अपि अस्ति राजा. तदर्थं कः विधिः, किं कस्य विधेः अनुष्ठानं करणीयं, किं करणीयम् इति गुरुः प्रष्टव्यः खलु. अतः गुरोः समीपं गन्तुं सः निश्चितवान्, दिलीपः, आश्रमं प्रति. इदानीन्तनकालः इव न, धनिकाः वा राजा अपि भवतु, इदानीम् अन्यान् स्वसमीपम् आनयन्ति स्वस्य धनप्रभावेन. पूर्वतनकाले तथा न. चक्रवर्ती अपि यदि दर्शनं करणीयं तर्हि गुरोः आश्रमं प्रति एव गन्तव्यं भवति. अतः दिलीपः अपि तथा चिन्तितवान्. किन्तु सः चक्रवर्ती अस्ति, तस्य महत् महान्ति कार्याणि भवन्ति. अतः किं करणीयं? सः सचिवेषु मन्त्रिषु स्वराज्यकार्यभारं सर्वं निक्षिप्तवान् कञ्चित् कालं यावत् तेषां दायित्वे कार्याणि सर्वाणि अपि तान् कार्ये नियोज्य सः गुरोः आश्रमं प्रति प्रत्यासः इति श्लोकस्य भावः इदानीं पश्यामः. अहं पठामि, अनुवदतु. सन्तानार्थाय विधये स्वभुजादवतारिता तेन धूर् गुर्वी सचिवेषु निचिक्षिपे. सन्तानार्थाय विधये स्वभुजादवतारिता ऊर्जगतो गुर्वी सचिवेषु निचिक्षिपे. विधये स्वभुजात् पिता तेन धूः जगतः गुर्वी सचिवेषु निचिक्षिपे इति पदच्छेदः. अन्वयक्रमम् आकाङ्क्षाक्रमेण यथा प्रश्नोत्तरक्रमेण दृष्ट्वा अनन्तरं वयम् अन्वयं प्रति आगच्छामः. पूर्ववत् अन्वयक्रमार्थम् आरम्भे किम् अपेक्षितं? क्रियापदम्. क्रियापदं कदाचित् साक्षात् लकाररूपे क्रियापदं भवति, कदाचित् किं भवति कृदन्तं पदं, तप्रयोगः वा तवत्तु प्रयोगः वा तथा भवति. अत्र निचिक्षिपे इति एतत् क्रियापदमेव, किन्तु एतद् कर्तरि वा कर्मणि वा इति चेत् तेन निचिक्षिपे इति अस्ति किल, अतः कर्मणि लिट् निचिक्षिपे. तेन निक्षिप्ता, तेन स्थापिता इति अर्थः निचिक्षिपे. क्षिप् धातुः क्षिप्यति इति, क्षिपति इति वदामः किल, तस्य रूपं निचिक्षिपे, निक्षिप्ता. यदा नी उपसर्गः भवति सर्वदा स्थापनम् अथापनम् इति अर्थे भवति. अर्थं पतति, उत्पतति उपरि, निपतति चेत् अधः पतति, भाति नि इति अधोभागम् अधोगमनम् इति सूचयति निचिक्षिपे. क्षिप्ता केन? तेन दिलीपेन, तेन राज्ञा. अस्तु, तेन राज्ञा का निक्षिप्ता? किमपि वस्तु निक्षिप्तं किल, किं स्थापितम् इत्युक्ते का निक्षिप्ता अस्ति तेन? धूः निक्षिप्ता, जगतः धूः. जगतः धूः, जगत् समग्रां पृथिवीमेव सः, न केवलं कस्यचित् भूभागस्य राजा. पूर्वं वयं दृष्टवन्तः आसमुद्रक्षितीशानाम् इति, तथा जगतः धूः, जगतः भारः, दुहुना भारः. कीदृश्यः भारः सः? गुरुः भारः. धूः, धूः शब्दः अत्र स्त्रीलिङ्गे अस्ति इत्यतः गुर्वी धूः. भारः इति पुल्लिङ्गं पदं स्वीकुर्मः चेत् गुरुः भारः, समग्रजगतस्य महान् भारः. तेन निक्षिप्तः. कीदृशी सा धूः? गुर्वी धूः, जगतः धूः, गुर्वीधुः किं कृत्वा निक्षिप्ता? सः स्वभुजात् अवतारिता. कीदृशी? पुनः कीदृशी? धूः, अवतारिता धूः. धूः नाम भारः. रथस्य यत् प्रधान भवति किल, तस्य नाम अपि धूः भवति. किमर्थं धूः इति वदन्ति इत्युक्ते सः एव भागः, समग्रस्य रथस्य भारं वहति, अतः मुख्यभागः. अत्र रथेन सम्बन्धः नास्ति, किन्तु भारः इत्येव अर्थः स्वीकरणीयः. धूः इत्युक्ते अवतारिता धूः. स्वभुजात् स्वस्कन्धात् तं भारं सः अवरोपितवान्. यद् अवरोपयति तत् अन्यत्र कुत्रापि स्थापनीयं किल? कुत्र निक्षिप्तवान्, कुत्र स्थापितवान् इत्युक्ते सचिवेषु. सं दायित्वे तं भारं, जगतः शासनरूपं भारं सः स्थापितवान्. अस्तु, किमर्थम् एवं कृतवान्? सन्तानार्थाय विधये, विधिम् अनुष्ठातुं. विधिः किमर्थं कृतवान्? विधये. कीदृशाय विधये? सा विधिः, सः विधिः अथवा तदनुष्ठानं कीदृशमस्ति इत्युक्ते सन्तानार्थं तदस्ति. सन्तानार्थाय विधये स्वभुजात् अवतारिता गुर्वी जगतः धूः तेन सचिवेषु निक्षिपे, निचिक्षिपे इति सामान्य अन्वयः. पुनः एकवारम् अन्वयं पठामः वयम्. सन्तानार्थाय विधये स्वभुजात् अवतारिता जगतः गुर्वीधूः तेन सचिवेषु निचिक्षिपे इति. इदानीम् अन्वयार्थं प्रतिपदार्थं पश्यामः. सन्तानार्थाय विधये पुत्रप्राप्त्यर्थम् अनुष्ठानं कर्तुम्, अनुष्ठातुम्, अनुष्ठानं विधातुम् अवतारिता स्वबाहोः अवरोपिता. जगतः लोकस्य गुर्वी धूः. गुर्वी नाम महान् भारः. गुर्वी धूः दुर्भरः, यद् सोढुं वोढुं कष्टमिति तादृशः भारः. गुर्वी धूः दुर्भरः कार्यभारः. सरलतया केनापि एतत् एतस्य निर्वहणं न शक्यते कर्तुं, किन्तु तादृशं भारं सः विश्वसनीयेषु सचिवेषु कार्यं निक्षिप्तवान् इति अर्थः. दुर्भरः कार्यभारः तेन चक्रवर्तिना दिलीपेन सचिवेषु मन्त्रिषु निचिक्षिपे स्थापिता अथवा निहिता. भावार्थः कः? सन्तानलाभाय करणीये अनुष्ठाने यः तदर्थं गुरोः वसिष्ठमुनेः उपदेशः प्राप्तव्यः इति निश्चितवान् दिलीपराजः. अतः सः पृथिवीपालनरूपं महान्तं भारं कञ्चित् कालं यावत् तेषु मन्त्रिषु च अमात्येषु च निक्षिप्तवान् इति. सचिवाः इति अस्ति. वस्तुतः चाणक्यनीतौ, चाणक्यशास्त्रे एतेषां पदानां विवरणं सः यच्छति. मन्त्री इत्युक्ते कः, ते कः, अमात्यः इत्युक्ते कः, यः मन्त्रालोचनं ददाति सः मन्त्री. अनन्तरम् अमात्यः कः इत्युक्ते मन्त्री एव इतोपि श्रेष्ठं पदं भवति, वरिष्ठं पदं पदवी भवति, वरिष्ठा पदवी भवति. तदनन्तरं सचिवः. इदानीन्तनकाले पश्यामः चेत् केबिनेट् स्टेट् रेङ्क् इति भवति किल मिनिस्ट्री मध्ये, तथा मन्त्री केबिनेट् स्तरे भवति. अनन्तरं स्टेट् स्तरे यद् भवति तद् सचिवः इति, तस्य पदस्य अमात्यः अथवा सचिवः इति नाम. एवं तत्र विवरणं विस्तरेण दीयते शास्त्रे. ये केऽपि KSOU मध्ये MA पठितवन्तः ते एतद् पठितवन्तः स्युः. अस्तु, अत्र समस्तपदानि कानि? सन्तानार्थाय. सन्तानः अर्थः. अर्थशब्दस्य बहवः अर्थाः भवन्ति इति प्रथमप्रश्नपत्रे अपि दृष्टं किल. अत्र प्रयोजनम् इति अर्थः, पुरुषार्थः, धर्मार्थकाममोक्षः इति. सन्तानः अर्थः यस्य, सः सन्तानार्थः तस्मै. स्वभुजात्, स्वस्य भुजः, स्वभुजः तस्मात् इति. इदानीं 35 श्लोकः. एकवारं 34 श्लोकः, तस्य पठनं कुर्मः. सन्तानार्थाय विधये स्वभुजादवतारिता तेन धूर्जगतो गुर्वी सचिवेषु निचिक्षिपे. अग्रिमं 35 श्लोकः. इदानीं सः प्रस्थितः साक्षात्. इतः परं 20 अथवा 25 श्लोकान् यावत् कविः तस्य प्रस्थानं, तस्य मार्गवर्णनं, तस्य आश्रमप्राप्तिः इत्यादिं बहु. अत्र प्रयाणस्य आरम्भः, रथे तौ उपस्थितौ आस्ताम्. यथा गीतायां वद श्लोकः अस्ति, श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ माधव पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतुः इति भवति किल. सञ्जयः वर्णयति, धृतराष्ट्रं वदति, तथा अत्र रथारूढौ सुदक्षिणादिलीपौ कथं दृश्येते इति श्लोकः. अत्र किञ्चित् भिन्नवर्णनं, दम्पत्योः आश्रमगमनं भवति. तत्र श्लोकं रथम् आरुह्य तौ गच्छतः. ततः पूर्वतनश्लोकः आश्रमं जग्मतुः, ततः अनन्तरश्लोकः एव तस्य वर्णनं भवति. अथाभ्यर्च्य विधातारम् प्रयतौ पुत्रकाम्यया
गुरुर्जग्मतुराश्रमम्
इदानीं मिलित्वा श्लोकं समग्रं पठामः. अथाभ्यर्च्य विधातारम् प्रयतौ पुत्रकाम्यया तौदं वसिष्ठस्य गुरोर्जग्मतुराश्रमम्. सरलम्. अत्र क्रियापदं किं? ततः पूर्वं पदच्छेदं पश्यामः. अथ, अभ्यर्च्य, विधातारं, प्रयतौ, यया, तौ, दम्पती, वसिष्ठस्य गुरोः जग्मतुः आश्रमम्. अत्र क्रियापदं किं भवति? जग्मतुः, द्विवचनं जगौ जग्मतुः जग्मुः इति लिट् लकारः, एकः चेत् जगौ, अत्र जग्मतुः सुदक्षिणा दिलीपौ द्वौ अपि जग्मतुः, गतवन्तौ अगच्छताम्। कौ जग्मतुः, कर्तृपदम् अत्र श्लोके तौ दम्पती, त्रिशौ तौ, दम्पती तौ, त्रिशौ तौ। प्रथम श्लोकस्य प्रथमपङ्क्तौ एकपदमस्ति द्विवचने, तदेव पुनः एक विशेषणपदं प्रयतौ तौ। प्रयतः नाम पवित्रः, शुद्धः, प्रयतौ तौ। कुत्र जग्मतुः, कर्मपदं, गन्तव्यस्थलं किम्? आश्रमं जग्मतुः। कस्य आश्रमं? गुरोः, गुरोः आश्रमं, वसिष्ठस्य आश्रमं। कीदृशस्य? वसिष्ठस्य, गुरोः वसिष्ठस्य आश्रमं जग्मतुः। अस्तु, कया अथवा केन हेतुना जग्मतुः? पुत्रकाम्यया, पुत्रकाम्यया, पुत्रेच्छया जग्मतुः। किं कृत्वा जग्मतुः? पदमस्ति आरम्भे एव, अभ्यर्च्य, अथ तदनन्तरम् अभ्यर्च्य। कम् अभ्यर्च्य? विधातारं, ब्रह्माणम् अभ्यर्च्य। तौ पुत्रकाम्यया, तौ दम्पती, गुरोः वसिष्ठस्य आश्रमं जग्मतुः इति अन्वयः, अन्वयं पठामः। अथ पुत्रकाम्यया, प्रयतौ तौ दम्पती, विधातारम् अभ्यर्च्य, गुरोः वसिष्ठस्य आश्रमं जग्मतुः। अर्थः, प्रतिपदार्थं पश्यामः। अथ, अथ नाम यत्र यत्र अथ इति भवति तत्र कदाचित् पूर्वतनश्लोकस्य अथवा बहूनां श्लोकानाम् अर्थः तत्र गृहीतव्यः भवति। अत्र अथ इति पदस्य कोऽर्थः? मन्त्रिषु राज्यभारस्थापनानन्तरम् इति अर्थः। निचिक्षिपे इति वयं दृष्टवन्तः किल, सन्तानार्थाय विभुजादवतारिता तेन धूर्जगतो गुर्वी सचिवेषु निचिक्षिपे, सचिवेषु भारं निक्षिप्य। पुत्रकाम्यया, पुत्रस्य इच्छया, पुत्रेच्छया, प्रयतौ तौ दम्पती, प्रयतौ, पूतौ, पवित्रौ, मनसा शरीरेण, मनसा वाचा कायेन च, पवित्रौ भूत्वा तौ दम्पती सुदक्षिणा दिलीपौ, सुदक्षिणा इति भवेत् तत्र दोषः अस्ति, सुदक्षिणा दिलीपौ, विधातारं, ब्रह्माणं, ब्रह्मदेवम् अभ्यर्च्य, सम्पूज्य, गुरोः वसिष्ठस्य आश्रमं, कुलगुरोः वासस्थानं, जग्मतुः, ययतुः, गतवन्तौ इति अर्थः। एतस्य भावार्थः एवं भवति, सचिवान् शासनकार्ये नियोज्य पुत्रप्राप्तेः अपेक्षया तदुपायं ज्ञातुं च तौ राजदम्पती दक्षिणादिलीपौ ब्रह्माणं सम्पूज्य स्वकुलगुरोः वसिष्ठस्य तपोवनं प्रति प्रस्थितौ। किमर्थम् अभ्यर्च्य इति उक्तम् इति चेत्, येषां पुत्राभिलाषः अस्ति ते किं कुर्वन्ति? ब्रह्माणम् उपासते, सः खलु पुत्रार्थिभिः उपास्यते इति स्मृतिवाक्यम्। समासः पुत्रकाम्यया. अत्र काम्यचिति एकः प्रत्ययः भवति. आत्मनः पुत्रम् इच्छति इति पुत्रकाम्यति प्रत्ययः भवति. पुत्रकाम्यति इति पुत्रकाम्या तया इति रूपम्. यथा वयं गरुडायते इति पश्यामः, गरुडवत् आचरति इति गरुडायते. मनः पुत्रमिच्छति इति पुत्रकाम्यति, पुत्रकाम्यति इति पुत्रकाम्या. काम्या अत्र इच्छा इति अर्थे भवति. तया पुत्रकाम्या काम्यया. दम्पती इति समस्तपदे वस्तुतः पूर्वपदं किम् इत्युक्ते जाया. जाया च पतिः च दम्पती. जाया शब्दस्य समासे पूर्वपदे दम् इति आदेशः भवति. तेन शब्दः नित्यपुल्लिङ्गद्विवचने भवति. रूपं च भवति, एकवचनरूपं न भवति. विधातारं विदधाति इति विधाता. विधातारम् इदानीं श्लोकं पठामः. अथाभ्यर्च्य विधातारं पुत्रकाम्यया तौ दम्पतीवसिष्ठस्य गुरोर्जग्मतुराश्रमम्. अस्तु, अग्रिमम्. इदानीं यथा पूर्वम् अस्माभिः चर्चितं, तयोः आश्रमं प्रति गमनं, तस्य वर्णनम् इतः आरप्स्यते. गम्भीरनिर्घोषम् एकं स्यन्दनमास्थितौ प्रावृषेण्यं पयोवाहम् विद्युदैरावताविव अस्य पदच्छेदः स्निग्धगम्भीरनिर्घोषम् एकं स्यन्दनम् आस्थितौ प्रावृषेण्यं पयोवाहं विद्युदैरावतौ इव. अत्र उपमाकालिदासस्य इति वचनम् कुर्वन् सः रथस्य यद् गमनमस्ति किल, रथः मार्गे यदा वेगेन गच्छति तस्य कश्चन शब्दः भवति, शब्दतुल्यः अस्ति इति कविः अत्र उपमां दर्शयति, उपमानं दर्शयति. स्निग्धगम्भीरनिर्घोषम् इति पदे तत्रापि रथस्य शब्दः स्निग्धं गम्भीरं च. रथस्य शब्दः स्निग्धः अस्ति, गम्भीरः अस्ति इति वदति. अनन्तरम् आरूढौ तौ कौ सुदक्षिणादिलीपौ, तौ कथं दृश्येते इत्युक्ते यथा मेघे विद्युत् ऐरावतगजेन सह यथा विलसतः द्वौ अपि, तथा अत्र एतौ द्वौ इति वदति. पश्यामः अर्थम्. अत्र क्रियापदं किम्? प्रथमवाक्ये क्रियापदम् अस्ति इत्युक्ते दत्तप्रयोगः आस्थितौ. अस्थितौ नाम उपविष्टौ रथे, स्यन्दनम् अस्थितौ रथम् अस्थितौ। किम् अस्थितौ रथम् आरुह्य अथवा रथे उपविष्टौ तौ गच्छतः किल, तद् जग्मतुः इति अध्याहारः करणीयः। रथे उपविष्टौ तौ तादृशौ तौ जग्मतुः, वसिष्ठाश्रमं प्रति जग्मतुः इति प्रतिश्लोकं तस्य एतस्य जग्मतुः इति पदस्य अध्याहारः भवति। बहूनां श्लोकानाम् एवमेव बहुषु श्लोकेषु इतः परं जग्मतुः इति क्रियापदस्य अध्याहाररूपेण स्वीकरणं भवति। तौ जग्मतुः, कौ? तौ दम्पती। कीदृशौ सन् जग्मतुः, किं कुर्वन्तौ? अस्थितौ सन्, रथे भूत्वा इति अर्थः। किम् अस्थितौ? एकं स्यन्दनम् अस्थितौ, एकं रथम्, एकस्मिन्नेव रथे उभौ अपि गच्छतः, एकं रथम् अस्थितौ। तस्य तुलना भवति किमिव अस्थितौ इत्युक्ते, प्रावृषेण्यं पयोवाहं विद्युदैरावतौ अस्थितौ इव। मेघम्, कीदृशं मेघम्? वर्षाकालीनं मेघम्। प्रावृषेण्यं पयोवाहं विद्युदैरावतौ, यथा यदि अस्थितौ भवतः तथा एतौ द्वौ अपि एकं स्यन्दनम् अस्थितौ, एकं एकस्मिन् स्यन्दने उपविष्टौ द्वौ अपि गच्छतः इति भवति। अन्वयं पश्यामः। स्निग्धगम्भीरनिर्घोषम् एकं स्यन्दनम्, प्रावृषेण्यं पयोवाहं विद्युदैरावतौ इव अस्थितौ तौ जग्मतुः। पश्यतु, अत्र द्विविधं भवति तुलना। एकम् उपमेयम्, एकं तु रथस्य रथपक्षे रथस्य गमनशब्दः, मेघं मेघस्य पक्षे मेघस्य निर्घोषः शब्दः इति, तत्र एक तुलना। कः? रथम् अस्थितौ तौ सुदक्षिणादिलीपौ, स्तः इत्युक्ते विद्युदैरावतौ इव स्तः। इदानीं प्रत्येकमपि पदं पश्यामः। स्निग्धगम्भीरनिर्घोषम्, स्निग्धम् इत्युक्ते शब्ददृष्ट्या स्निग्धम् इत्युक्ते मधुरम्। सामान्यतया स्निग्धशब्दस्य कः अर्थः इत्युक्ते साफ्ट्, विस्कस् इति वदामः, तैलस्य गुणः स्निग्धः इति वदन्ति, तथा स्निग्ध अत्र शब्दस्य विशेषणं भवति चेत् मधुर इति अर्थः। कर्कशस्य विपरीतं स्निग्ध गम्भीरध्वनिः, मेघगर्जनस्य ध्वनिः कथं भवति? तदपि वर्षाकालीनमेघः। मधुरः गम्भीरः ध्वनिः यस्य, सः स्निग्धगम्भीरः। तं रथम् अथवा तं मेघम्। स्यन्दनम् इति नपुंसकलिङ्गशब्दः भवति, रथः इति पुल्लिङ्गशब्दः भवति। तत् स्यन्दनम् अथवा तं रथम्। एकं स्यन्दनम्, एकं रथम्, एकस्मिन् रथे एकस्मिन् स्यन्दने तौ स्तः। प्रावृषेण्यं पयोवाहम्, पश्यतु अत्र कविना रथशब्दः न प्रयुक्तः। किमर्थं स्यन्दनशब्दस्य प्रयोगः कृतः इत्युक्ते, रथः वेगेन गच्छति किल, स्यन्दति, स्यन्दति इति स्यन्दनम्, मार्गे अग्रे गच्छति, प्रवहति इव, अतः स्यन्दनम् इति पदम् अत्र कविना चितमस्ति. एकं स्यन्दनम् आस्थितौ, एकं रथम् आस्थितौ, प्रावृषेण्यं पयोवाहम्. प्रावृत् इति पदस्य अर्थः वर्षाकालः. प्रावृषेण्यं वर्षाकालीनम्, अत्र तद्धितान्तं पदमस्ति प्रावृषेण्यं. प्रावृषी भवम्, वर्षाकाले ये मेघाः भवन्ति तेषां प्रावृषेण्यमेघः इति अर्थः. प्रावृषेण्यं पयोवाहम्, पयांसि वहति इति पयोवाहः, मेघः मेघं, तं मेघं, वर्षाकालीनमेघमिव. विद्युदैरावतौ इव, यथा प्रावृषेण्यमेघे यथा वर्षाकालीनमेघे तरित् च ऐरावतगजः च भवतः, तथा एतौ द्वौ अपि आस्थितौ आरूढौ तौ ययतुः जग्मतुः. वर्षाकालीनमेघे एव विद्युत् तदा तदा प्रकाशते, द्योतते. विद्योतते इति विद्युत् विशेषेण द्योतते, अतः एव एवं दर्शितम् अस्तु. भावार्थः, मेघः इव मधुरं गंभीरं ध्वनिं निर्ह्रादं, ध्वनिः इति पदस्य निर्ह्रादं, निर्घोषः इत्यादि पदानि सन्ति पर्यायपदानि. मेघः इव मधुरं गंभीरं ध्वनिम् उत्पादयन् सः रथः प्रयाति. मेघे यथा विद्युत् च ऐरावतः च आरूढौ भवतः, तथा रथेऽस्मिन् सुदक्षिणादिलीपौ आसीनौ वसिष्ठमहर्षेः तपोवनं प्रति प्रस्थितौ. सरलार्थः, स्निग्धगम्भीरनिर्घोषम् इति समस्तपदं पश्यामः च, असौ गम्भीरश्च स्निग्धगम्भीरः कर्मधारयः. स्निग्धगम्भीरः निर्घोषः यस्य, निर्घोषः नाम ध्वनिः, स्निग्धगम्भीरः निर्घोषः यस्य, तं स्निग्धगम्भीरनिर्घोषम् विशेषणं भवति एतत् सम्पूर्ण बहुव्रीहिपदम्. स्यन्दनम् अथवा पयोवाहम् उभयोरपि विशेषणम्, अतः स्निग्धगम्भीरनिर्घोषम् स्यन्दनम् आस्थितौ अथवा स्निग्धगम्भीरनिर्घोषम् पयोवाहम् आस्थितौ ऐरावत विद्युतौ इति. प्रावृषेण्यम्, प्रावृषि भवः, प्रावृषेण्यः, प्रावृट् इति तस्य सप्तमी एकवचनं प्रावृषि, वर्षाकाले इति अर्थः. प्रावृषि भवः, प्रावृषेण्यः, तं प्रावृषेण्यम्. पयोवाहं, पयांसि वहति इति पयोवाहः, तम् विद्युदैरावतौ, विद्युच्च ऐरावतश्च विद्युदैरावतौ. विशेषेण द्योतते इति विद्युत्, ऐरावतशब्दः कथं जातः? वयं सर्वे जानीमः समुद्रमथनसमये ऐरावतगजः अपि आविरभूत् क्षीरसमुद्रे, तदा इन्द्राय तद् सः दत्तः ऐरावतः. उच्चैश्रवाः इति अश्वः अपि ततः आगतः. तस्य नामकरणं कथम् इत्युक्ते, इरावान् समुद्रः, इरा इत्युक्ते जलम्, इरावान् यः समुद्रः अस्ति तत्र भवः, इरावति भवः इति ऐरावतः इति तस्य नामकरणम् अस्ति. एवम् अस्य श्लोकस्य अपि एकवारं पठनं कुर्मः. स्निग्धगम्भीरनिर्घोषम् एकं स्यन्दनमास्थितौ प्रावृषेण्यं पयो वाहम् विद्युदैरावताविव। अनेन श्लोकेन वयम् अद्यतनं पठनं समापयामः। कस्यचित् क्वचित् संशयः अस्ति चेत् इदानीं प्रष्टुं शक्यते चेत् अग्रिमवर्गे।